सर्वेभ्यो नमस्काराः। अद्य सिद्धान्तकौमुद्याः पञ्चविंशः पाठः। प्रकृतिभावप्रकरणे निपात एकाजनानि इति सूत्रतः आरभ्यते। गतकक्ष्यायाः पुनरावर्तनं किञ्चित्। प्रकृतिभावप्रकरणे प्लुतप्रगृह्या असि नित्यम् इत्यनेन प्रकृतिभावः विधीयते, अर्थात् प्लुतानां प्रगृह्याणां च प्रकृतिभावः भवति इति। तत्र प्लुतः नामकः, प्रगृह्यश्च नामकः इति प्रश्ने प्लुतसंज्ञाविधायकानि सूत्राणि उच्यन्ते दीक्षितैः आदौ प्रत्यभिवादे अशूद्रे। अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः भवति। अभिवादये देवदत्तोऽहम् इत्यस्ति चेत् तस्य प्रत्यभिवादे आयुष्मान् भव देवदत्त इत्यत्र अन्तिमस्य अकारस्य प्लुतः भवति। ततः दूराद्धूते च इति प्लुतविधायकम् अग्रिमं सूत्रं। दूरादाह्वाने यद्वाक्यं तस्य टेः प्लुतः भवति। एहि कृष्णा इति स्थिते अथवा सप्तोन्प्यव देवदत्त इति दूरादाह्वानसन्दर्भे प्लुतः भवति। हैहे प्रयोगे हैहयोः। दूरादाह्वानेपि यदि है शब्दस्य हे शब्दस्य वा प्रयोगः अस्ति तर्हि तेषामेव अथवा तयोरेव प्लुतः भवति, न तु वाक्यस्य टेः। यथा है राम इत्यस्ति चेत् है इत्यस्यैव प्लुतः, न तु राम इत्यत्र अकारस्य। ततः गुरोरनुतोऽनन्त्यस्याप्येकैकस्य प्राचाम्। अनन्त्यस्यापि वर्णस्य क्वचित् प्लुतः भवति, सः गुरुवर्णः भवति चेत् ऋकारभिन्नश्च भवति चेत्। अर्थात् देवदत्त इत्यत्र दकारोत्तर एकारस्यापि प्लुतः भवितुमर्हति, द्वितीयदकारोत्तर अकारस्यापि प्लुतः भवितुमर्हति, अन्त्यस्य अकारस्य तु दूराद्धूते च इत्यनेन। एतत्तु एकैकस्य इत्युक्तत्वात् पर्यायेण एतेषां स्वराणां प्लुतः भवति इति सूत्रार्थः। प्राचाम् इत्युच्यते, तत्र योगविभागेन सर्वोऽपि प्लुतः विकल्पः इति सिद्ध्यति। एवं प्लुतं विधाय क्वचित् प्लुतस्य अप्लुतवद्भावमपि विदधाति पाणिनिः। अर्थात् प्लुतः अप्लुतवद्भवति, प्लुतकार्यं प्रकृतिभावं न करोति, प्लुतस्य सत्त्वेऽपि प्रकृतिभावः न भवति। क्व अप्लुतवद् उपस्थिते। उपस्थितः नाम अनार्षः इति शब्दः, तस्मिन् परे प्लुतः अप्लुतवद्भवति। सुश्लोक इति इत्यस्ति चेत् प्लुतस्य अप्लुतवद्भावे गुणे सुश्लोकेति इति रूपं सिद्ध्यति। एवमेव ई चाक्रवर्मणस्य इत्यनेन विकल्पेन अप्लुतवद्भावः विधीयते। प्लुतस्य इकारस्य अचि परे स्वरे परे अप्लुतवद्भावः भवति इति सूत्रार्थः। एवं प्लुतप्रकरणं समाप्य ततः प्रगृह्यसंज्ञाप्रकरणे प्रविष्टाः। प्रगृह्यसंज्ञाविधायकं प्रथमं सूत्रं भवति ईदूदे द्विवचनं प्रगृह्यम्। ईकारान्तम् ऊकारान्तम् एकारान्तं च द्विवचनं प्रगृह्यसंज्ञं भवति इति सूत्रार्थः। हरि एतौ, विष्णु इमौ, गङ्गे अमु इत्यादीनि उदाहरणानि। ततः अदसो मात्, अदश्शब्दे मात्परौ यौ ईदूतौ तेषां प्रगृह्यसंज्ञा भवति अथवा तयोः प्रगृह्यसंज्ञा भवति। यथा अमी ईशाः इत्यत्र अदश्शब्दे यः मकारः, अमी इत्यत्र मकारः, तस्मात् परः ईकारः, तस्य अचिपरे प्रकृतिभावः प्रगृह्यसंज्ञायां सत्याम् अचिपरे प्रकृतिभावः भवति। एवमेव रामकृष्णावमु आसाते, अमु आसाते इत्यत्र मकारात् परः यः ऊकारः तस्य प्रगृह्यसंज्ञायां प्रकृतिभावो भवति इति अदसोमात् इति सूत्रस्य उदाहरणानि। ततः शे इति वैदिकं सूत्रं, वैदिकप्रक्रियासम्बद्धं सूत्रं। शे इति वेदेषु सुप्रत्ययानाम् आदेशः, तस्मिन् सति तस्य प्रगृह्यसंज्ञा भवति, तेन प्रकृतिभावोऽपि भवति। अस्मे इन्द्रा बृहस्पति इत्यत्र शे इत्यस्य सत्त्वात् प्रगृह्यत्वात् सन्धभावः। अधुना प्रगृह्यसंज्ञाप्रकरणम् अनुवर्तते। निपात एकाजनाङ् इति अग्रिमं सूत्रम्। संख्यायां दोषः अस्ति। चतुर्दशं सूत्रं निपात एकाज् अनान्, पदत्रयमस्ति निपातः एकाज् अनान् इति। प्रगृह्यम् इति अनुवर्तते, ईदूदे द्विवचनं प्रगृह्यम् इत्यतः प्रगृह्यम् इति अनुवर्तते। कः अर्थः एकाच् निपातः एकः अच यस्मिन् सः एकाच् यस् यः यः निपातः यस्मिन् निपाते केवलम् एकः अजेव वर्तते अन्यत् किमपि नास्ति तादृशः निपातः एकश्चासौ अच् च इति क्षम्यतां विग्रहः अर्थात् एकः एव स्वरः यदि निपातसंज्ञां प्राप्नोति तर्हि तस्य प्रगृह्यसंज्ञा भवति आङ्वर्जः आङ् इत्यस्य तु न भवति तद्भिन्नानां निपातानां प्रगृह्यसंज्ञा भवति इति सूत्रार्थः उदाहरणम् इ विस्मये इ इत्येव निपातः यस्मिन् एक एव अज् अस्ति एकः एव अच् इकारः तस्य प्राग्वीश्वरान्निपाताः इत्यनेन चादिगणे पठितत्वात् निपातसंज्ञा भवति अस्य एकाज् निपातः एकः अज् निपातः प्रगृह्यः स्यात् इत्यनेन अस्य इकारस्य प्रगृह्यत्वे इ इन्द्रः इत्यत्र सन्धिः न भवति विस्मयार्थतः इ इति निपातः समथिङ्ग् लैक् ओ इन् इङ्ग्लिश् द सूत्र टेल्स् इफ् देर् इस् अ सिङ्गल् ओवल् विच् हेस् द संज्ञा काल्ड् निपात इट् इस् इन् द चादिगण वि हेव् अ इ उ ऋ आल् आफ़् देम् आर् categorized as nipatas in a particular sense. They are, have, all of them have some meaning. So such nipatas which are in the form of a single ach will get pragrihya samya by this sutra. Except ang, except the one nipata ang, all other nipatas which consist of a single ach will get nipata pragrihya samya by this sutra. And then u vitarke ityuchyate u ityapi nipatah ekaj rupah nipatah tasya pragrahya samyaya u umeshah vitarkah nama samshayah something like u umeshah means is this umesha or somebody else where there is a doubt it is called vitarka something like a guess where you are not sure of दट् इस् वितर्क सो उ उमेशः इत्यत्रापि सवर्णदीर्घसन्धिः न भवति इदानीम् आङ्वर्जः इत्युक्तम् अर्थात् निपात एकाज् अनाङ् यः आङ् इति यः निपातः तस्य प्रगृह्यसंज्ञा न भवति आङ् इत्यत्र अकारस्य इत्संज्ञा अस्ति तस्मात् सः आ इति एकः अच् निपातः तथापि प्रगृह्यसंज्ञा न भवति इत्युक्तम् किन्तु अत्र कश्चन काचन समस्या वर्तते आ इति निपातः द्विविधः अस्ति अङित् अपि अस्ति ङित् अपि अस्ति अङित् इत्युक्ते केवलः आकारः तत्र ङकारस्य इत्संज्ञा नास्ति ङित् अपि अस्ति यत्र आङ् इति मूलनिपातः तत्र ङकारस्य इत्संज्ञायाम् आ इत्येव शिष्यते आ इस् एक्चुलि आफ़् टु कैण्ड्स् देर् इस् वन् विच् इस् डिरेक्ट्लि ओन्ली आ without any associated particle and there is one which is ngit that is it has a ngit nakara as an anubandha so you have an angit a and a ngit okay the sutra tells nipata ekaj anang with the nakara so it is only the ngit a which is not pragrahya the angit would be pragrahya anang ityukte he angit akarah pragrahya eva यः ङित् आकारः तस्य निषेधः क्रियते सूत्रेण अनाङ् इत्युक्त्वा यस्तु आकारः ङित् न भवति अर्थात् अङित् भवति तस्य प्रगृह्यसंज्ञा भवति प्रगृह्यसंज्ञायां सत्यां प्रकृतिभावोऽपि भवति उदाहरणार्थम् आ एवं नु मन्यसे आ इट्स् लैक् एन् एक्स्क्लेमेशन् सो आ एवं नु मन्यसे इत्यत्र यः आकारः श्रूयते सः अङित् अर्थात् तस्य ङका ङिदनुबन्धत्वं नास्ति यदि ङकारः अनुबन्धः नास्ति तर्हि अनाङ् इति निषेधोऽपि न भवति तस्मादयं प्रगृह्यः द निषेध विच् इस् अनाङ् दट् इस् आङ् विल् नाट् बि प्रगृह्य विल् अप्लै ओन्ली टु दट् आकार विच् हेस् ङकार एस् एन् इत् सम् एस् इत् पार्टिकल् सो देर् आर् टू कैण्ड्स् आफ़् अकार देर् इस् वन् अकार विच् डस् नाट् हेव् ङकार विच् इस् अङित् एण्ड् देर् इस् वन् अकार विच् इस् ङित् सो द अङित् आकार विल् बि प्रगृह्य So there is prakriti bhava when you are saying a evannu manyase. Similarly, a evankila tat. Iti vakyadvayam. Ubhayatrapi angit akaraha eva asti. Atrayaha akaraha श्रूयते तस्य नित्वं नास्ति तस्मात् अत्र प्रगृह्यसंज्ञा अस्ति प्रकृतिभावोऽपि भवति नित् तु न प्रगृह्यः यः आकारः नित् भवति तस्य निपात एकाद् अनाङ् इति निषेधस्य श्रुतत्वात् प्रकृति प्रगृह्यसंज्ञा निषिध्यते तेन सन्धिः भवति उदाहरणं दीयते ईषदुष्णम् ओष्णम् ईषत् उष्णम् ईषत् इस् अ लिटल् अण्ड् उष्णम् इस् हाट् सो इन् द सेन्स् आफ् इट् इस् वार्म् वि यूस् दर् इस् अ उपसर्ग इस् आ or rather the nipata is a which is ang which is nit which is joining with ushnam so there since there is no pragrahya samya there is a sandhi and it forms the roopa oshnam a ushnam guna sandho sati oshnam idanim prashnaha prayoge tu ubhayatra kevalam akara eva shruyate katham nyayate kutra akaraha angit kutra cha nit How can we decide where is it nit and where is it angit? Because either way you hear only the akara. The ngakara is not heard. Because it gets itsamya, it gets lopa, so we never hear the akara. So how do we decide where is it nit and where is it angit? That's a question. Tada uchyate. Vakyasmaranayor angit anyatra nit iti vivekaha. So it says vakyasmarane. When it is an exclamation to a sentence or when it indicates smarana memory for example in a evannu manyase it's an exclamation which is associated with the sentence a evam kila tat is something which you are saying oh yeah right it was so you are remembering something and saying a evam kila tat so in both these cases it is angit that is the akara is not nit since it is not nit there is pragrahya samya and there is prakriti bhava अन्यत्र ङित् इति विवेकः दिस् एण्ड् अदर् आल् अदर् केसेस् इट् इस् ङित् एक्चुलि दिस् पार्ट् इस् टेकन् फ्रम् अ श्लोक इट् सेस् ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतमातं ङितं विद्यात् वाक्यस्मरणयोरङित् द पोर्शन् कोटेड् बै दीक्षित इस् टेकन् फ्रम् दिस् श्लोक दिस् श्लोक टेल्स् वाट् आर् आल् द मीनिङ्ग्स् इन् विच् आ केन् बि यूस्ड् And among those, where is it nit and where is it angit? Okay? So it is used ishadarthe. Ishat nama svalpam, svalparthe, meaning of very little. Kriya yoga, when it is an upasarga. That is when it is associated with a dhatu. Maryada abhividhau. Maryada and abhividhi. Tena vina maryada, tam abhivyapya abhividhihi ityuchyate. Maryada means a limit. That is something beyond which it does not cover is maryada. For example, we say asetu amukti samsaraha is the standard example given. Amukti samsaraha. Samsara, that is the world exists till you obtain mukti. That is, it does not, it ends where mukti is there. It is the end limit of samsara. There we use a mukti. There the a is used in the sense of maryada. Whereas abhivirhi means up to something and including it. For example, when you say a setu a bala vriddhaha, which is a more standard example, a bala vriddhaha, it is saying including both kids and older people. Something, some audience has both. It's an audience which spans both very small children and aged people. We say abalam avriddham. That is including the balas on one limit and including the vriddhas on the other limit. It is called abhividhi. Maryada is a limit which does not include the thing which is indicating the limit. Whereas abhividhi is one which is inclusive of that thing which denotes the limit. Okay? So in both these cases we use the nipata a. So in all these cases, ishadarthe, kriyayoge, maryadaya, abhividhau cha yaha akaraha, tam atam, arthad tam akaram, nitam vidyat, nit iti janiyat. You should consider such akara as nit. Wherever akara is used in ishadartha, in kriya yoga, in maryada or in abhividhi, then that akara is nyit. Akara is nyit means it does not have pragriha samya and sandhi will happen. Vakya smarana yoho angit. Whereas if the akara is an exclamation to a sentence or smarana, it is used as an exclamation of remembering, then it is not nyit. If it is not nyit, there is pragriha samya by nipata ekaj anang and there is no sandhi. Right? Let's see examples. Ishadarthe adhanaiva drishtam. Ishadushnam. Ishate ityarthe a iti upasargaha. A iti nipataha upalichate. A ushnam. Gunasandhav oshnam. Kriya yoga. A agachate. Gamadhatoho langlakare a iti sthite. Asya kriya yogatvat. Kriyaya gachati iti kriyaya saha yoga hasti iti karanat. अत्र नित आकारः नित्वात् प्रकृतः सम्या नास्ति सन्धिः भवति आगच्छत् मर्यादायाम् अभिविधौ वा अन्तपर्यन्तम् इत्यर्थे आ अन्तम् इति स्थिते सन्धिः भवति आन्तम् यस्तु वाक्ये स्मरणे वा आकारः तस्य नित्वाभावात् प्रकृतः सम्या भवति प्रकृतिभावश्च भवति आ एवन्न मन्यते आ एवं किल तत् ओके Is this clear? Any questions? अग्रिमं प्रकृति सम्या विधायकं सूत्रं भवति ओत् इति एकमेव पदं सूत्र पूर्वसूत्रात् इरुदेर्वेचनं प्रकृतम् इत्यतः प्रकृतम् इति अनुवर्तते निपात एकाजनाङ् इत्यतः निपातः इत्यपि अनुवर्तते ओत् निपातः अर्थात् ओकारान्तः निपातः प्रकृतसम्यकः भवति इति सूत्रार्थः ओदन्तो निपातः प्रकृतः स्यात् उदाहरणम् अहो ईशाः अहो इति निपातः साधिगणे पठितत्वात् तस्य निपातसंज्ञा वर्तते ओदन्तत्वात् अनेन सूत्रेण प्रकृतसंज्ञायां सत्त्वं सन्धिः न भवति अहो ईशाः इत्यत्र प्रकृतिभावः नथिङ्ग् अबौट् स्पेशल् अबौट् दिस् सूत्र इट् सेस् इफ् द निपात एण्ड्स् इन् ओकार देन् इट् विल् गेट् प्रकृतसंज्ञा एक्साम्पल् इस् अहो सिन्स् इट् हेस् प्रकृतसंज्ञा लाजिकलि इट् प्रकृतिभावः आल्सो सम्बुद्धौ शाकल्यस्येतावनार्षे चत्वारि पदानि सन्ति सम्बुद्धौ शाकल्यस्य इतौ अनार्षे इति छेदः इदुदेद्व्यसनं प्रगृह्यम् इत्यतः प्रगृह्यम् इति अनुवर्तते ओत् इति सूत्रतः ओत् इत्यपि अनुवर्तते सः अर्थः सम्बुद्धिनिमित्तकः ओकारः वा प्रगृह्यः अवैदिके इतौ परे सम्बुद्धिनिमित्तकः सम्बुद्धौ यः ओकारः अर्थात् सम्बुद्धौ परे सम्बुद्धिं निमित्तीकृत्य यः ओकारः प्राप्तः सः प्रगृह्यः भवति प्रगृह्यसम्यको भवति कदा अवैदिके इतौ परे इतौ अनार्षे अनार्षे इत्युक्ते अवैदिके इतौ अर्थात् इति शब्दे परे सम्बुद्धिनिमित्तकस्य ओकारस्य अवैदिके इति शब्दे परे प्रगृह्यसंज्ञा भवति सन्धिः न भवति विष्णो इति विष्णो इति विष्णु इति शब्दस्य सम्बोधनप्रथमाविभक्तौ एकवचनं विष्णु इत्यस्मात् सुप्रत्यये कृते ह्रस्वस्य गुणः इत्यनेन गुणः भवति सम्बुद्धिं निमित्तीकृत्य गुणः प्राप्तः अयं सम्बुद्धिनिमित्तकः ओकारः तस्य इतौ परे अवैदिके इति शब्दे परे प्रगृह्यसंज्ञा भवति तस्मात् विष्णो इति प्रकृतिभावे सति विष्णो इति अयं प्रकृतिभावः विकल्पेन शाकल्यस्य इत्युक्तत्वात् विकल्पेन अयं प्रकृतिभावः तदभावे अर्थात् प्रगृह्यसंज्ञाभावे వస్తుతః అత్ర సంబుద్ధో శాకల్యసేతవనాశ్రయత్వేన వికల్పేన ప్రగృహ్య సమ్య ప్రకృతిభావస్తు ప్లుతప్రగృహ్య అసి నిత్యం ఇది సూత్రేణైవ ప్రగృహ్యసంజ్ఞాభావే విష్ణో ఇతి స్థితే ఏచోయవాయావః ఇత్యనేన అవాదేశో భవతి తథః లోపశాకల్యస్య ఇత్యనేన వికల్పేన వకారలోపః వకారలోపే సతి విష్ణ ఇతి అలోపాభావే విష్ణవ్ ఇతి ప్రగృహ్యసంజ్ఞాయాం విష్ణో ఇతి త్రీని రూపాన్ని సంపాద్యంతే. సో ద సూత్ర టెల్స్ వేర్ ఎవర్ వి హ్యావ్ ఎన్ ఓకార విచ్ హెస్ బీన్ డిరైవ్డ్ యూజింగ్ సంబుద్ధి వాట్ ఇస్ ఇన్ సంబోధన వెర్ ఎవర్ యు హ్యావ్ ఎన్ ఓకార వెన్ ఇట్ ఇస్ ఫాలోడ్ బై ఇతి బై ద వర్డ్ ఇతి విచ్ ఇస్ నాట్ వైదిక దెన్ వి గెట్ ప్రగృహ్యసమ్య ఆప్షనలీ వెన్ దెర్ ఇస్ ప్రగృహ్యసమ్య దెర్ ఇస్ నో సంధి దట్ ఇస్ దెర్ ఇస్ ప్రకృతి భావ సో వన్ ఫార్మ్ వుడ్ బి విష్ణో ఇతి వెన్ దెర్ ఇస్ నో ప్రగృహ్యసమ్య వీ కెన్ డూ యంతవాంతాదేశ దట్ ఇస్ ఏచోయవాయావహ ఇత్యనేన అవాదేశ భవతి తదా విష్ణవితి ఇది రూపం. అవాదేశే కృతే లోపశాకల్యస్య ఇత్యనేన వికల్పేన వకారలోపో భవతి తదా విష్ణ ఇతి ఇది రూపం. రూపత్రయం సిద్ధ్యతి. ఓకే, విల్ సీ ద ఆన్సర్ ఇమీడియట్లీ. వాట్ డస్ ఇట్ మీన్ అవైదిక? దర్ ఇస్ ఇతి శబ్ద విచ్ ఇస్ యూస్డ్ ఇన్ ద వేదాస్, విచ్ ఇస్ అ పార్ట్ ఆఫ్ ద వేదాస్, అండ్ దేర్ ఇస్ ఇతి విచ్ ఇస్ యూస్డ్ ఇన్ ద లోక. సో ఇఫ్ ద వేదాస్ దెమ్సెల్స్ హ్యావ్ అన్ ఇతి, ఫర్ ఎగ్జాంపుల్ అనార్షే ఇతి కిం బ్రహ్మబంధ విత్యబ్రవీత్, దిస్ ఇస్ అ వేదవాక్య టేకన్ ఫ్రమ్ సమ్ వేద వేర్ ద వేదిక్ సెంటెన్స్ ఇట్ సెల్ఫ్ హ్యాస్ బ్రహ్మబంధో ఇతి అబ్రవీత్ బ్రహ్మబంధ విత్యబ్రవీత్. హియర్ ద ఇతి ఈజ్ వైదిక, ఆర్ష ఆర్ష మీన్స్ వైదిక. So since it is Vaidika, there is no Pragrhya Samya. Brahma Bandho Iti, we get Avadesha and it becomes Brahma Bandha Viti or Brahma Bandha Iti. Only two forms. The form with Pragrhya is not seen in the Vedas. Only in Loka, in classical Sanskrit, when an Okara, Sambuddhi Nimittaka Okara is followed by Iti Shabda, then we have Pragrhya Samya. అగ్రిమం సూత్రం భవతి ఉయః, ఏకమేవ పదం సూత్రే ప్రగృహ్యం ఈదూదే ద్వివచనం ప్రగృహ్యం ఇత్యతః ప్రగృహ్యం ఇతి అనువర్తతే. సంబుద్ధో శాకల్యస్యేతావనార్షే ఇత్యతః శాకల్యస్య ఇతి అనువర్తతే ఇతౌ ఇత్యపి అనువర్తతే. కః అర్థః? ఉయః ఇతౌ వా ప్రాగుక్తం, ప్రాగుక్తం నామ ప్రగృహ్య సంజ్ఞా భవతి వికల్పేన భవతి, చాకల్యస్య ఇత్యుక్తత్వాత్ వికల్పేన భవతి తదా భవతి ఇతౌ ఇతి శబ్దే పరే. లోకే వా భవతు వేదే వా భవతు అనార్షే ఇతి అత్ర న సంబధ్యతే, ఇతి శబ్దే పరే. ఉయః, ఉయ్ ఇతి నిపాతః, ఉ ఇస్ అనదర్ నిపాత. ఓకే, సో ఫర్ ద నిపాత వెన్ ఇట్ ఇస్ ఫాలోడ్ బై ఇతి శబ్ద దెన్ ఆప్షనలీ దెర్ ఇస్ అ ప్రగృహ్య సంజ్ఞ. ఫర్ ఎగ్జాంపుల్ యు హ్యావ్ ఉ ఇతి, in ui the yakara is it, so you are left with only u, so when it is followed by iti shabda u iti it is kute pragruhya samyayam satyam u iti ityeva rupam tadabhavetu iko yanasi ityanena yanadeshe viti ukarasya sthane vakaradesho bhavati viti. This sutra tells that the nipata u gets pragruhya samya when it is followed by the word iti. And this Pragruhya Samya is optional. When there is Pragruhya Samya, there is Prakruti Bhava. Otherwise, there is Sandhi. Um, ati agrimam sutram. Atrapi ekameva padam. Pragruhyam iti anuvartate. Idu de dvyajanam pragruhyam ityataha. Sambuddhau shakalyasya ita vanarshe ityataha. Shakalyasya iti anuvartate. Itau ityapi anuvartate. ఉయః ఇత్యస్మాత్ ఉయః ఇత్యపి అనువర్తతే. అర్థః? ఉయః ఇతౌ దీర్ఘః అనునాసికః ఉ ఇత్యయం ఆదేశః వా స్యాత్. యాక్చువల్లీ దిస్ ఇస్ అ కంటిన్యూషన్ ఆఫ్ ది ప్రీవియస్ సూత్ర. ఇన్ ద అష్టాధ్యాయీ ఒరిజినలీ ఇట్ వాజ్ ఓన్లీ ఉయ ఉ, దట్ ఇస్ ఫార్ ఉయ్ ఇన్ ప్లేస్ ఆఫ్ ఉయ్ యు గెట్ అన్ ఆదేశ కాల్డ్ ఉ. ఓకే, బట్ ద భాష్యకార హస్ స్ప్లిట్ ఇట్ ఇన్ టు టూ డిఫరెంట్ సూత్రాస్ to get three forms. Okay, we'll see how the three forms are. Now this sutra tells that when ui is followed by iti shabda, there is an adesha. Instead of there being a prakrishna samya, there is an adesha. The adesha is u. This u is anunasika, dirgha, and also pragrihya. It has all three properties. It is dirgha, anunasika, and pragrihya. So the u is replaced by u. Okay, optionally. Okay, there is a question by Yulia. She asks, how do we know that anarsha is not involved either in this sutra or the unyaha? Commentary. Always the anuvritti, what has to be taken from the previous sutra and what is not taken from the previous sutra, is always decided by commentaries like the Bhashya or some other commentary. Okay. Now what is happening here when you have u plus iti, where this is ui? Optionally there is an adesha. U iti sutrena dirghaha anunasikaha pragrhyaha u iti adeshaha bhavati. Asya pragrhyatvata sandhihi na bhavati. U iti ekam rupam. Etad abhave, adeshasya abhave. U iti iti sthite. Uyaha ityanena prakriti bhavaha vikalpena bhavati. Uyaha ityanena pragrhya samya vikalpena bhavati. Tadascha prakriti bhavaha bhavati. Tada u iti rupam. Tritiyam tu ubhayoho abhave, adeshopi na bhavati, pragrihyasamyapi na bhavati, iti chet. Tada, yanasi, ko yanasi ityanena yansandhihi bhavati, viti, iti rupam. So, actually the sutra was split to derive three forms. If it had been a single sutra as unya un, then optionally you would have got an adesha, which is un iti, and in its absence you would have got the yanadesha, which would be viti. We would not have been able to derive this u iti. So the sutra was split into two, uyaha and u. From uyaha you get an optional pragrhya samya, from u you get an optional adesha. When, since both the sutras are optional, when they do not apply we get a sandhi. So basically there are three forms. इदानीं उयः प्रकरणस्य आरब्धत्वात् तत्सम्बद्धं सूत्रं उच्यते दीक्षितैः. मय उयो वो वा, चत्वारि पदानि मयः उयः वः वा. नमो ह्रस्वादचि नमुन्नित्यम् इति सूत्रेण अचि इति अनुवर्तते. कः अर्थः? मयः इति पञ्चमी विभक्तिः, मयः परस्य इत्यर्थः. वेन् फालोयिङ्ग् वेन् मयि वर्ण इस् फालोड् बै उयः इति षष्ठी विभक्तिः. उयः स्थाने, इन् प्लेस् आफ् उञ् विच् इस् प्रिसीडेड् बै अ मयि वर्ण. अचि परे, अचि इति सप्तमी विभक्तिः, अचि परे इत्यर्थः. सो देर् इस् अ मयि वर्ण विच् इस् फालोड् बै उञ् विच् इन् टर्न् इस् फालोड् बै अच्. देन् वह इति प्रथमा, वकारः भवति. उयः स्थाने, उकारस्य स्थाने वकारः आदेशः भवति, विकल्पेन भवति इत्यर्थः. मयः परस्य उयः वः वा स्यात् अचि इति सूत्रार्थः. किमु उक्तम् इत्यस्ति वस्तुतः. अत्र किमु उ उक्तम्, उ इति उञ्, उञ् इति निपातः. किमु इति शब्दः वि फैंड इट वेरी ऑफन in the same sense as kim, we use kimu. So there the uy is a nipata. So mayah parasya uyaha, may makaraha mai varnaha, tasmad yada paratvena ukaraha bhavati, tasya achparakatve kim bhavati, ukarasya sthane vakaraha adeshaha bhavati. Kimu uktam iti sthite savarna dirghaha prapnoti, tam badhitva anena sutrena vakaraha bhavati adeshaha. Kim uktam इति रूपं, मय उयो वो वा इति सूत्रेण वकारादेशः किं उक्तं. तदभावे, वकारादेशाभावे तु किमु उक्तम् इत्येव भवति, सन्धिः न भवति, तो न भवति. निपात एकाजनाङ् इति सूत्रेण प्रगृह्यसंज्ञा प्रकृतिभावश्च भवति, तेन अत्र सन्धिः न भवति. रूपद्वयं, किम् उक्तम् इति एकं, किमु उक्तम् इति अपरं रूपम्. So by the sutra maya unyo vova, when the ukara actually the uy to look at it comprehensively, the Ui has only Ukara. So by Nipata Ekajana, it gets a Pragrihya Samya compulsory. When it is followed by Iti Shabda, then it gets an optional Prakriti Bhava or an optional U Adesha. When it is preceded by Mai Varana and followed by Ach, it gets an optional Vakara Adesha. So in the absence of Vakara Adesha, you have Pragrihya Samya by Nipata Ekajana, because it is an Ekoch Nipata. A Nipata which is in the form of a single Ach. Then we get Pragrihya Samya and from that Prakriti Bhava. Here. Now there is a question which Dikshita raises here. When you do this Adesha, that is Kimu Uktam Ityatra Vakara Adeshe Krute Monuswaraha Ityanena Makarasya Anuswaraha Prapnoti. Monuswaraha is a sutra which we will study in Hal Sandhis. It says Mantasya Padasya Anuswaraha Syat Hali. Hali Pare Makarantasya Padasya Anuswaro Bhavati. It is sutrartha. Atra Kim Uktam Ityatra Kim Iti Mantam Padam. Tatrayaham akaraha tasya anuswaraha bhavet vakarasya achitvat iti prashnaha tada uchyate vasya asiddhatvat na anuswaraha sutra kramam pashyamaha monuswaraha iti tu ashtamadhyayasya tritiya padasya trayovimshatitamam sutram mayavyo vova iti tu ashtamadhyayasya tritiya padasya trayastrimshatamam sutram purvatra siddham ityanena Mayavayo vova ityanena krutaha vakara deshaha monuswaraha iti sutram prati asiddhaha asiddhatvat anuswaraha na bhavati. The problem here is, after we do the vakara desha, kimu uktam is, has been converted to kim uktam, then should we do anuswara by monuswaraha is a question. Because monuswaraha tells, when a makaranta pada is followed by hal, then the makara is converted to anuswara. Harim vande makara hasti cheta agre vakarasya sastvata anuswaraha bhavati. Atra api bhavati va. Can we do the anuswara here also is the question. The answer is no. Why not? Vasya asiddhatvat. Because vakara is asiddha to monuswara. Monuswara does not know that vakara desha has happened. Because the vakara desha has been told by a later sutra. In the Tripadi, always purvatra asiddham. Maya uyovova is not known by monuswaraha. Monuswaraha thinks there is still a ukara there. Kimu uktam is what monuswaraha sees. Since it does not know vakara has, vakara desha has happened, it does not see the hal. The vakara is the hal there. So it does not see the vakara and hence there is no anuswara. Vasya asiddhatvat na anuswaraha. The last sutra in Pragrihya Samya Prakarana is Idu Taucha Saptam Yarthe. Trini Padani Santi Idu Taucha Saptam Yarthe Pragrihyam Idu De Dvijanam Pragrihyam Ityataha Pragrihyam Iti Anuvartate Kahartha Saptam Yarthe Paryavasannam Idu Dantam Pragrihyam Syat. Ikaranta or Ukaranta, which carries the meaning of Saptami Vibhakti, will get the Pragrihya Samya. What is the example is Somo Gauri Adhishritaha. Atra Somo Gauri Adhishritaha Tyatra Vastutaha Gauryam iti artha. Vaidika Prayogahayam Mamaki Tanu iti ityapi Vaidika Prayogaha. This is something which is seen only in the Vedas. It says, the sutra says, if there is an ikaranta or ukaranta, that is Gauri or Tanu, which is actually carrying the meaning of Saptami. Here in the Somo Gauri Adhishritaha, the Gauri is actually means Gauryam in Gauri. Similarly, Mamaki Tanu, ityatra Tanvam, ityarthaha. Supam Suluk, iti Saptamyaha Luk, Ubhayatra, Gauri Ni. Ni iti pratyaha, saptamyeka vachana pratyaha, tanu ni, punaha saptamyeka vachana pratyaha, supam suluk purvasavarna cheya dadyaya jalaha iti sutrena, ni pratyasya luk bhavati, luk nama lopaha bhavati. The pratyaya here, the saptami ekavachana pratyaya has been deleted by the sutra supam suluk. but the meaning is still present. Whenever you delete something, the meaning is not lost. So the meaning of Saptami is still here. The sutra tells wherever there is an ikaranta or ukaranta which carries the meaning of Saptami Vibhakti, then there is Prabhya Samya. So Somo Gauri Adhishtitaha Ityatra Sandhihi na Bhavati. Ikarasya Prabhya Samyatvat. Similarly, Mamaki Tanu Iti Ityatrapi Ukarasya Tanu Ityatra Yahayu Ukaraha तदन्तस्य उकारान्तस्य तनु इत्यस्य प्रगृह्यसमय भवति सूत्रार्थः अत्र प्रश्नः अर्थग्रहणं किं सप्तम्यर्थे इति किमर्थम् उच्यते सप्तम्यां ईदूतौ च सप्तम्यां इत्येव उच्यताम् इति प्रश्नः वै डस् इट् से वेन् इट् क्यारीस् द मीनिङ्ग् आफ् सप्तमी से वेन् इट् हेज् सप्तमी बै लाजिकली इट् मीन्स् वेन् द अर्थ आफ् सप्तमी इस् प्रेसेण्ट् So he says, Vrittau Arthantaropa Sankrante Mabhut. Vritti. Vritti is a term which is used very often by, it's a technical term, by Vaiyakarana. Vritti means the definition, technical definition is Pararthabhidhana Vritti. But Vritti is actually, it refers to five different processes which happen in grammar. There is Samasa. There is that ekashesha, there is tadhita, there is sanadhyanta dhatu, kridvritti, tadhita vritti, sanadhyanta dhatu vritti, ekashesha vritti and samasa vritti. There are five vrittis. Okay. Vritti is basically, it is generally where you modify a particle or you join two words to give a different meaning. For example, in samasa, when you are joining two different words, it merges together to give some different meaning. Similarly, in tadhita, when you are saying dasharathasya apatyam, together it forms dasharathi. It is different than just dasharatha and than just apatya. It is a special thing. So, such things are called vritti. In vritti, there are five kinds of vritti. Samasa, ekashesha, krit, tadhita and sanadhyanta dhatu vritti. Always in a vritti, the artha of the things are not independent. For example, here let us consider samasa vritti. Okay. What he is saying is vapyam ashvaha vapyashvaha ityasti. Vapyam ashvaha, vapi is a stream, ashvaha is a horse, vapyam ashvaha iti saptami tatvrasya samasaha. Katham asti vapi ni ashva su. Vapi ityasmata ni pratyaha saptami ekavachane. Ashva su. अत्र किं भवति सुबोधातुप्रातिपदिकयोः इत्यनेन ङि इति प्रत्ययस्य सु इति प्रत्ययस्य च लोपो भवति वापि अश्व इत्यस्ति यु सी दिस् इस् समथिङ्ग् लैक् वाट् वि सा इन् द प्रीवियस् स्लैड् विच् इस् अबौट् गौरी अधिष्ठितः देर् आल्सो वि हेड् गौरी एण्ड् ङि द सप्तमी प्रत्यय एण्ड् द प्रत्यय वास् डिलीटेड् बै सुपोन् सुलुक् एण्ड् वि स्टिल् से इवन् दो द प्रत्यय वास् डिलीटेड् द प्रातिपदिका स्टिल् रिटेन्स् द मीनिङ्ग् आफ् सप्तमी That is why it has the Pragnya Samya. Here also, when you are doing a vritti, here also Vapyam is Saptami. So the Ngi is the Saptami Pratyaya which is deleted by Supodhatu Pratiparikayoho. But here, using the same logic, you will have to say that Vapi, the Pratiparika, still carries the meaning of Saptami. So will we get Pragnya Samya here also? It's a question, and there is no Pragnya Samya. Why is there no Pragrihya Samya? Because he says, Vrittau Arthantaropa Samkrante. In Vritti, actually when you are doing a samasa between Vapi and Ashva, the meaning of Vapi is not separate from the meaning of Ashva. That is, you cannot separate and say that this is the meaning of Vapi and this is the meaning of Ashva. An example Kayata gives is Pamsu Dakavati. If you have some mud and you add water, and mix it, it is not sand, it is proper mud, clay or something, then you cannot separate the mud from the clay, they are merged together. Similarly, in a vritti or in samasa, the meaning of the purva pada and the uttara pada is merged together. It is, you cannot say that the meaning of vapi is separate and that of ashva is separate. So how does that matter here? It matters because here vapi is not only in the saptam yartha. It does not carry only the meaning of saptami. It also is merged with the meaning of ashva. Why Panini said artha here, saptam yarthe, is where the word carries only the meaning of saptami and nothing else, then only you get pragraha samya. If there is a vritti, this vapi does not carry only the meaning of saptami. It carries the meaning of saptami, but it also has the meaning of ashva merged with it. So in such cases, there is no pragraha samya and sandhi will happen. Vapyam ashvaha, vapi ashvaha iti sthite, yan sandhav vapyashvaha iti rupam. Yes. I'm not sure if I made myself clear. Any questions? No? Okay. Anena pragrahya samya prakaranam samapyate. These are all the sutras which tell the pragrahya samya. Starting from idude dvivasanam pragrahyam, adasomat, she, nipata ekajanang, oth, sambuddhau shakalya sietavanashe, unyaha, idu tauca saptam yarthe. There are 9 sutras which deal with the pragrahya samya. What is the karya of a pragrahya samya? It is prakriti bhava. It is always the samya. Giving a samya is for some purpose. Using the samya, you have to do some other thing. So if you give vriddhi samya from vriddhiradaij, you use the samya in other places, like you say mridhir vriddhihi or vriddhireji or sicha vriddhi prasmai padeshu, right? So for all samya sutras, there must be some karya, some vidhi sutras where they can apply. So the principal vidhi sutra where pragrahya samya applies is pluta pragrahya achinityam. That is, whatever particle gets pragrahya samya will also get prakriti bhava, right? But that is not the only karya which pragrahya samya gets. It is all, he did not give the pragrahya samya only to say that it gets prakriti bhava. There is also one more thing which happens with prakriti bhava, with pragrahya, and that is something which comes at the end of the ashtadhyayi. Towards the end it says ano pragrahyasya anunasikaha, anaha apragrahyasya anunasikaha. Vavasane iti purva sutrat va avasane iti anuvartate. Apragrihyasya anaha avasane anunasikaha va bhavati. Kashchana anvaranaha yadi na pragrihyaha. Atra pragrihya samyayaha upayogaha asti. Any an which is not a pragrihya will get anunasika, avasana at the end. If there is nothing else following, viramo avasanam, varnanam abhavaha avasana samyaha syat. So if at the avasana, that is, if there is nothing following, then an an which is not pragrahya will get anunasika. For example, you have a word dadhi, only dadhi with nothing following, then there is an an at the end of it, dadhi. That ikara gets an anunasika optionally and it becomes dadhi. Dadhi, dadhi. Iti rupadvayam. Sarvesham anvarnanam bhavati, pragrahyasya tu na bhavati. If it is a pragrahya, apragrahyasya kim? Agni. Agni has pragrahya samya by idude dvivachanam pragrahyam. Idude dantam dvivachanam pragrahya samyam syatityanena pragrahya samya bhavati. Pragrahya samyayaha sattvat atra anunasikaha na bhavati. Actually using it and saying, if it is pragrahya, it will get pragrahya bhava. That is, it will not get sandhi, it will also not get anunasika. They are the two karyas which use the samya called pragrahya. Okay. That actually ends the prakriti bhava prakarana. Okay. I'll tell vapyashvaha again. Any other doubts? We finished atsandhav prakriti bhava. We finished the atsandhi prakarana and also the prakriti bhava prakarana. We would be entering the hal sandhis next. Any questions so far? You can ask. Okay, Vasuji.
Namaste, Swamiyaji.
Ha, namaste. ప్రక్రియ and it would occur in prayoga. So that's
so in literary sense, in literary sense, in literary Sanskrit you use anunasika under this condition.
In literary Sanskrit actually the practice of anunasika itself has gone out of usage. We don't use either the swaras or the anunasikas these days. So where you'll actually see it is only in the Vedas, where you'll get an example of anunasika. In classical Sanskrit, even if we have anunasika, it makes no difference because it is not used. We do not use the anunasika unless in some very, very rare cases. Any other questions? Not, I'll go back to Vapyashvaha. What was the deal with Vapyashvaha? Is the question. Actually, to understand this properly, you also need to know some other practices of Vyakarana. Why did the question arise? That's the first question. The questioner says, Panini need not have said Idu Taucha Saptamyarthe. He could have said Idu Taucha Saptami. Wherever there is Saptami, there is idutav. He could have said, he need not have said arthe, that extra word arthe. The answer to that could be, there is no saptami vibhakti directly which has either ikara or ukara. Right? For example, if you say Rame or Harav or Shambhav or wherever, if you go wherever, saptami vibhakti, any word ending with saptami vibhakti is not either ukaranta or ikaranta. So there would be no example. Right? If he just said, like he said, idu de dvivachanam, any dvivachana ending in ikara, ukara or ekara will become pragrahya. You have dvivachana forms which end in ikara, ukara or ekara. You have Hari, you have Vishnu, you have Gange, etc. But the problem with Saptami Vibhakti is you do not have any form directly, I mean, any form which has Saptami Vibhakti which ends in ikara or ukara. Right? So Panini says arthe, that is, even though the Saptami Vibhakti is not there, if the meaning of the Vibhakti is there. For example, in Gauri Adhishtitaha, in Mamaki Tanu Iti, there is no Vibhakti. We do not hear the Vibhakti because the Vibhakti has been deleted. But still, even if the Vibhakti is deleted, the meaning of Saptami is there. So, in such cases, you get Pragrahya Sapnya. Even if you do not hear any saptami, saptamyanta word with ikaranta or ukaranta, there is saptamyartha. There is wherever there are some words which are ikaranta and ukaranta and which carry the meaning of saptami, even though the saptami bhakti is not heard. So that is where you actually find an application of this sutra. That is why Panini said saptamyarthe is the answer. But the question further is, even for that, he need not have said saptam yarthe. Even if he had said just saptami, we could have derived the meaning called saptam yarthe. Because there is a standard rule in Vyakarana which says pratyaya lope pratyaya lakshanam. Even when the pratyaya is deleted, we assume or we pretend that it is still there. This is something like sthanivad bhava. Even though the sthani has been replaced by adesha, we treat it as if the sthani is there. Similarly, whenever there is a deletion of a pratyaya, pratyaya lope, pratyaya lakshanam, we still treat it as if the pratyaya is there. So, even if Panini did not say saptam yarthe, even if he just said saptami, wherever the saptami vibhakti has been deleted, we can apply this, pretending that the saptami vibhakti is still there. So, the actual purva paksha, that is the objection is, Panini should not have used this extra artha. Is the objection clear? There is no questions. I assume the objection is clear. The objection is that Panini need not have said arthe. That is why the question begins, Arthagrahanam kim? Kimartham saptam yarthe iti uchyate. Kevalam saptami iti ukte eva karyam siddhyati. Just by telling saptami, Panini could have achieved what he wanted. Why did he put that extra arthe? Is the question. Now he says, why he puts that artha is to emphasize the meaning of saptami. That is to say that only where there is the pure meaning of saptami only, then we have pragrahasamya. If the meaning of saptami is contaminated with any other meaning, that is if it is not only the meaning of saptami but something else which is also there, then you do not get pragrahasamya. To emphasize that the meaning of saptami should be pure, he uses the word arthe. What do you mean by the meaning of saptami being pure? Is, as I told, in a samasa, where you have, say, vapyam ashvaha, where it is a saptami samasa, after the lopa, deletion of the pratyaya, this has saptamyartha. The word vapi carries the meaning of saptami, correct. But it has also merged with the meaning of ashva. That is, it is not only the pure saptami meaning which is present here. It is also the meaning of ashva. So in such cases, there is no pragrahya samya. To say that, to emphasize that the meaning of saptami should not be merged with any other meaning. That is, to say that in vritti, that is wherever you have samasa or tadhita or something else, you do not get pragrahya samya. Panini uses the word arthe. The word arthe is required, is the siddhanta. Is that better? Okay. Any other questions? Anything so far, as in it need not be just today's class. So we have covered Samya Prakarana, Paribhasha Prakarana, Achandhi and Prakritibhava. Four Prakaranas of Kaumudi. The next Prakarana would be Halsandhi Prakarana. So if you have any doubts in what we have done so far, you can ask anytime. We start Halsandhi and stop. Okay. I don't want to end with a Prakarana. Agrimam Prakaranam Bhavati Siddhanta Kaumudyaha Halsandhi Prakaranam. Yatra Halaha Vikaraha Bhavati. Where there is a modification of consonants, it is called Halsandhi. The modification can be either when followed by a Swara or when followed by a Vyanjana. But the modification is in a consonant. All such cases are dealt with in Halsandhi Prakaranam. Tatra Adimam Sutram Asti Stohu Shchuna Shchuhu Shchutva Sandhi Vastataha Atrapi Namani Shchutva Shchutva Atyadina Namani Diyante Stohu Shchuna Shchuhu Iti Prathamam Sutram. Just a second, please. Paratrayam asti stohu shchuna shchuhu. Stohu, it is Shashti Vibhakti. Su, tu. Su plus tu is stu. Tasya Shashti Vibhakto stohu. Yatha Guru Shabdasya Guruhu. Iti Bhavati Shashti Vibhakto. Tatha stu iti Shabdasya stohu. Iti Bhavati. Kaha arthaha Sakarasya Tavargasya cha. Tu ityanena Tavargaha Grihyate. Katham. Can somebody tell me why, how tu represents Tavarga? Anybody, why do we say tu is tavarga? Okay, somebody raise their hands. Ha, Hema.
It's not taparat tatkalasya.
तपरस्तत्कालस्य नो
तपरस्तत्
इट् इस् नाट् अत् तपरस्तत्कालस्य रेफर्स् ओन्ली टु द अण् दट् इस् इफ् दर् इस् अ स्वर विच् इस् तपर देन् इट् वुड् बि अ सवर्ण आफ् दट् काल रैट् षडगोपन्ये कथं तस्य प्रयोगः अत्र हौ डु यु अप्लै दट् उदित् करेक्ट् सो स्तु इति उदित् भवति यत्र उकारः इत् भवति तत्र तत्कालानां सवर्णानां ग्रहणं भवति इति अर्थः तस्मात् तु इत्यनेन सवर्णानां तवर्गीयवर्णानां ग्रहणं भवति तनौ सकारस्य तवर्गस्य च स्थाने श्चुना इति तृतीया विभक्तिः तृतीया विभक्ति वी हेव् नाट् स्टडीड् एनि परिभाषासूत्र फोर् आल् अदर्स् फोर् षष्ठी इट्स् ए षष्ठी स्थाने योग पञ्चमी इट्स् एस् तस्मादित्युत्तरस्य सप्तमी इट्स् एस् तस्मिन् इति निर्दिष्टे पूर्वस्य बट् देर् इस् नो परिभाषा विच् गिव्स् द मीनिङ्ग् आफ़् तृतीया बिकास् द मीनिङ्ग् आफ़् तृतीया इन् शास्त्र इस् द सेम् एस् वाट् इट् इस् इन् लोक इन् लोक द तृतीया विभक्ति मीन्स् वित् सः इत्यर्थः सामान्यतः अस्मात् अत्रापि स एव अर्थः योगे वेन् असोसियेटेड् वित् इट् इट् इस् नीदर् परा नार् पूर्व जस्ट् वेन् इट् इस् असोसियेटेड् वित् Shakara or Chavarga. When Sakara or Tavarga is associated with either Shakara or Chavarga, then Shchuhu, iti prathama vibhakti vidheyaha. Shakara Chavargau staha. Shakaraha Chavargascha adeshaha bhavati. Kimartham atra tutiya upayukta ityukte. Sutrartha bhavati. Sakara Tavargayoho. Shakara Chavargabhyam yoge. Shakara Chavargau staha. It means, either when Sakara or Tavarga is followed by Shakara or Chavarga, or Shakara Chavarga is followed by Sakara Tavarga, both ways. It is not fixed that this is the Purva Varna and Paravarna. It can be either way. That is why Panini says when it is associated with Shchuna, Shchuna Saha Bhavati Chet, Sakara Tavargau, Shakara Chavarga Abhyam Saha Bhavataha Chet. If it is together, that is when Sakara or Tavarga is either followed by Shakara Chavarga or preceded by Shakara or Chavarga, the Adesha will be Shakara or Chavarga. Sakara Tavarga Yohu, Shakara Chavarga Abhyam Yoge, Shakara Chavarga Ustaha. Yatha Sankhya Manudesha Samana Mityanena, Sakarasya Shakaraha Adeshaha, Sakarasya Chakaraha, Sakarasya Chakaraha, Stohu Iti Shadvarnaha, श्चुहु इत्यपि षड्वर्णाः आदेश स्थानी इस् आल्सो सिक्स् इन् नम्बर् आदेश इस् आल्सो सिक्स् इन् नम्बर् सो वि डु यथासङ्ख्या दट् इस् रेस्पेक्टिव्लि एण्ड् से सकार इस् आल्वेस् रिप्लेस्ड् बै शकार वेदर् इट् इस् फालोड् बै शकार आर् चवर्ग इट् इस् आल्वेस् रिप्लेस्ड् बै शकार सिमिलर्ली वित् अदर् वर्णास् एक्साम्पल् हरिस् श्येते इत्यस्ति हरि स् श्येते स् इति सकारः स्तुः स्तोः श्चुना शकारेण योगे श्चुः भवति अर्थात् सकारस्य स्थाने शकारः आदेशः भवति हरिष्येते रामस् चिनोति स्तोः श्चुना सकारस्य चवर्गेण योगे शकारादेशः भवति रामश्चिनोति सत् चित् दिस् इस् स्लैट्लि ट्रिकि एक्साम्पल् एक्चुलि सत् चित् If you directly, there is takara, which is followed by chakara. If we directly do shchutva, we get the form satchit, which is what we want. But in Vyakarana, the prakriya does not go that way. The Vyakarana prakriya is, when you have satchit, 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 jhalam jashonte ityanena takarasya dakara desho bhavati. Padante jhalam jashahasyuhu. And the end of a pada, if there is a jhal varana, it is replaced by dakara. Okay, then the dakara is converted to jakara by stohushchunashchuhu. Ayamapi sakara tavargayoho tavargiyaha dakaraha tasya shchuna yoge chakarena yoge दकारस्य स्थाने जकारः आदेशः भवति सज् चित् ततः अस्य जकारस्य खरिच इत्यनेन सकारः व्हेनेवर देयर इज अ थर्ड लेटर इज फॉलोड बाय अ खर वर्ण इट इज कन्वर्टेड टू द फर्स्ट लेटर वी विल सी द सूत्र लेटर खरिच बट दिस इज हाउ वी एंड अप विथ सत् चित् Question is, when you have sat chit, directly if you convert takara by shchutva, you get sat chit. So why don't we do that? Why do we have to go to three steps to derive takara? Is because all these sutras are in the tripadi. You will notice that most sutras of phal sandhi are in tripadi. Because there needs to be a sequential application. Even though it does not matter in this particular case, there are many cases where the sequence matters, where you have to apply in sequence. Wherever you are dealing with sutras from Tripadi, you have to remember that you have to apply them in the order that they appear, because the earlier sutra does not know the later sutra. So Jhalam Jashonte will not accept if you directly do Stoshtunashtuho. Jhalam Jashonte will still think there is Takara and it will do Dakara, which will convert it into Dakara. It does not know that chutva exists. So Jhalam Jashonte gains precedence. You do Jastva first, then you do Shchutva. Because Shchutva knows that Jastva has appeared, it converts the Dakara to Jakara. Once Shchutva is also done, you have Kharicha, which converts this Jakara to Sakara. So the application has to be in the order of Tripadi. Right? Sat Chit Sat Chit Shargin Jaya नकारस्य कवर्गीयस्य नकारस्य जकारेण योगे न्यकारः सवर्ग पञ्चमाक्षरः न्यकारः आदेशः भवति शाङ्गिन् जय इति रूपम् ओके ऐ थिंक वी विल स्टॉप हियर एनाक्षरसमहं नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं मुनित्रयन्नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते।